प्रराजावाचम् जनयन् दशतदपोपसानो अभिगायी यक्षति ऋभ्णाति ऋप्लमवीरस्य तान्वा शुद्धो देवानामुपायाति निष्कृतम् इन्द्राय सोमपरीषिच्यसे नृभिर्विदक्षाः भोर्मिः कविरज्यसेवने भोर्वीर्हिते श्रुतयः सन्ति जातवे सहस्रमस्वाहरायश्च भूषदाः समुद्रिया अप्सरसो मनीषि नमासीनान्तरपि सोमवक्षरन् आयीम् हिन्वन्ति हन्यस्य सक्षणिम् याचन्ते सुम्नम् बवमानवक्षीकम् योजिन्नः सोमो रथजिद्धिरन्यजत्स्वर्जिदब्जत्मापदे सहस्रजित् यम् देवासश्च गृहे पीतये पदम् स्वादिष्टम् धप्समरुणम् माजो भुवम् एतानि सोमपवमानो अस्मयः सत्यानि कृण्वन्द्रवीणान्यर्षसि यगि शत्रुमन्ति के दूरके च य उर्वीम् गव्योतिमभयम् जनस्कृति